ततो युद्धपरिश्रान्तम् समरे चिन्तयास्थितम् रावणम् चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपागम्याब्रवीत् राममगच्छो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यम् सनातनम् येन सर्वानरीन् वत्स समरे विजयिष्यसि आदित्य हृदयम् पुण्यम् सर्वशत्रुविनाशनम् जयावहम् जपेन्नित्यमक्षयम् परमम् शिवम् सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् रश्मिमन्तम् समुद्यन्तम् देवासुरनमस्कृतम् पूजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम् सर्वदेवात्मकोऽस्येष तेजस्वीरश्मिभावनः एष देवासुरगणाम् लोकान् पादिगभस्तिभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रोधनदष्टालो यमस्तोमोक्ष्यपाम् पतिः पितरो वसवस्साध्याप्यश्विनौ मरुतो मनुः वायुर्वह्निः प्रजा प्राणा ऋतुकर्ता प्रजापतिः आयुज्य सविता सूर्यः खगपूषागभक्तिमान् सुवर्णसदृशो भानुः स्वर्णरेशादिवाचरः हरिरश्वसहस्राश्चि सप्त सप्तिर्मरीषिमान् तिमिरोन्मथनशम्भुः स्वस्ता मात्राण्डमंशुमान् हिरण्यगर्भशिशिरस्तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्खः शिशिरनाशनः योमनाथः समोधेवी रुव्ययुस्सामपारगः घनवृष्टिरपाम् मित्रो विन्ध्यवीही प्लवङ्गमः आतपीमण्डले मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेजा रक्तः सर्वभवोत्सवः नक्षत्रग्रहताराणामधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमे गिरये नमः ज्योतिर्गणानाम् पतये दिनाधिपतये नमः जयाय जय भद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारङ्गाय नमो नमः नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः तप्तजानीकराभाय वह्नये विश्वकर्मणे नमः तमोऽभिनिघ्नाय ऋषये लोकसाक्षिणे नाशयत्येष वैभूतम् तथैव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभक्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैवाग्निहोत्रम् च फलम् चैवाग्निहोत्रिणाम् वेदाश्च कृतवश्चैव क्रतूनाम् फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविप्रभुः येन मापत्सु कृत्स्वेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषकश्चिन्नावशीरतिराघव पूजयस्वैनमेकाग्रो देवदेवम् जगत्पतिम् एतत् त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि एवमुक्त्वा स राजस्यो जगामच यथा गतम् एतत् श्रुत्वा महातेजा भक्तशोको भवत्तदा धारयामास सुप्रीतो राघव प्रयतात्मवान् आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् त्रिराचम्यसुतिर्भूत्वा धनुरादाय वीर्यवान् रावणं प्रेक्ष्य पुष्पात्मा युद्धाय समुपागमत् सर्वयत्नेन महता वधेतश्च धृतोऽभवत् अथरविरवदन् निरीक्ष्य रामम् मुदितमनाः परमम् प्रहृष्यमाणः निशिचरपति संक्षयम् विदित्वा सुरगणमध्यगतो वचस्वरेति